अनतिमिरान्धस्य ज्ञानञ्जनशलाख्या चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। वाञ्छाकल्पतरुवश्च कृपासिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। आजानुलम्बितभुजो कनकावदातो सङ्कीर्तने कुपितरो कमलायताक्षो विशम्भरो द्विजवरो युगधर्मपालो वन्दे जगत्प्रिये करो करुणावतारो। हे कृष्ण करुणा सिन्धु दीनबन्धु।